हरि ओम सहस्र शीर्षा पुरुषः सहस्राक्ष सहस्रपात सभूमिं सर्वतः स्पृत्वात् यतिष्ठ दाशांगुलम् पुरुष के वेदं सर्वं यद्भूतं यच्च भाव्यम् उतामृतत्वस्येषानो यदनेनातिरोहति एतावान्नस्य महिमातो जयाङ्गश्च पुरुषका पदोऽस्य विश्वाभूतानि त्रिपादश्यामृतं दिवि त्रिपारुत्वा हुद्वित्पुरुषका पदोऽस्येहाभवत् पुनः ततो विश्वं व्याक्रामत् शासनान्नशदेयभिः ततो विराजायत विराजोऽद्धि पुरुषक स जातो अतिरिच्यत पश्चाद्भूमि मतो पुरा तस्मद्यज्ञात् सर्वभूतः संवृतं पृषदाज्यं पशुंस्तंश्चक्रे वायव्या नारण्या क्राम्यश्च के तस्मद्यज्ञात् सर्वभूतः ऋचः सामानि जगिरे छन्दांसि जगिरे तस्मद्युस्तस्माद् जायत तस्मादश्वा अजायन्त ये के चो बाया दत्तः गवोः जगिरे तस्मत् तस्मज्जाता अजाबायः धं यज्ञं वर्किषि प्रोक्षं पुरुषं जातमग्रतः तेन देव अयजन्त सद्या हृषयश्च के यपुरुषं व्यददु कतिदावख्यापयन् मुखान् किमस्य सीत् किं बाहु किमुरुपतकुच्यते ब्रह्मणोऽस्या मुखमासीद् बाहुराजन्यः कृतः उरुतजस्य यद्वैश्यः भव्यांशूद्रौ अजायत चन्द्रमा मनसो जतस्थक्षौ सूर्यौ जायत श्रोत्रद्वायुश्च प्राणश्च मुखग्निर्जायत नाभ्यामासीदन्तरिक्षं शीर्ष्णोद्याौ समवर्तत भ्यां भूमिर्दिसहस्रत्रत् तथा लोकां न कल्पयन् यपुरुषेण हविषा देवयज्ञामथन्वता वसन्तोष्यासीदाज्यं ग्रीष्म इदमहस्रद्विके सप्तास्य सन्परिदाय स्त्री सप्तसमिदः कृता देवा यज्ञं तन्वामा अपदं पुरुषं पशुं यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यसन् तेयनाकं भगिमानक सचन्त यत्र पूर्वे साद्याः सन्ति देवः अद्यः संवृतः पृथिव्यकीर् असाच्य विश्वकर्मणः समवर्तताग्रे तस्य त्वष्टा विदद्रूपमिति तन्मर्त्यस्य देवतमजानमग्रे विदाहमेतं पुरुषमहन्तम् आदित्यवर्णं धमसपरस्तात् तमेव वीति त्वाति मृत्युम् मेति यन्त्यः पन्था विद्यते यनाय प्रजापतिश्च रति गर्भे अन्तर्जायमानो बहुधापि जायते तस्या योनिं परिपश्यन्ति धीरास्तस्मिन्नन्तस्तुर्भुवनानि विश्वा यो देवेव्य आत्पति यो देवान्धां भूरोहितः Purvo yo devibyo jato namo ruchaya brahmake. Rucham brahmang jandayanto deva agreta dabruvan. Yasto evam brahmano vidyat tasya deva ashan bashe. Srishtate lakshmischa padnyava ho ratre. Parshwe nakshatrani rupamasminah vyaptam. Ishnani sana mung maishana sarvalokang maishana iti dvitiyo adhyaya.